एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल भारत वाणिज्य सचिव स्तरीयान्तर सर्वकारीय समितेः उपवेशे नेपाल भारत व्यापार सन्देहे विस्तृत पुनरावलोकनस्य कृते पृथक उपवेशम् समावेष्टुम् सहमतिः धृतास्ति। ह्यः काष्ठमण्डपे सम्पन्ने अन्तर सर्वकारीय समितेः उपवेशे भारते काकडभित्ता फूलबारी बंगलाबन्द मार्गेण नेपाली वस्तुवाहक साधनानाम् सञ्चालने निर्धारितम् सीमानम् निरस्य भारतीय वस्तुवाहक यानानाम् इव सञ्चालनम् विधातुम् भारतीय पक्षः सहमतो वर्तते। उद्योग वाणिज्य आपूर्ति मन्त्रालय नै ह्य प्रकाशित आयम विज्ञप्तौ उपानः कञ्चनपुरस्य शुक्ला फाटा नगरपालिकायाः एकादशवडा क्षेत्रस्य नागरिकेभ्य सहजरूपेण पेयजलम् दापयितुम् पञ्चानां कोटीनां रूप्यकाणां व्ययेन कल्वापुर पेयजलायोजना सञ्चालितास्ति। आयोजनायाः अन्तर्गतम् लक्षद्वयम् 25,000 चेति लिटरमित क्षमतायाः जलभण्डारणस्य 50 किलोमिटरमित जलनलिकायाः विस्तारणस्य च कार्यम् विहितम् वर्तते। उपभोक्तृभ्यः 24 एव घण्टासु दैनिकरूपेण पेयजलस्य प्रदानाय व्यवस्था विहितास्तीति उपभोक्तृ समितेः अध्यक्ष विनोद कुमार दमाई असूचयत्। अधिकार दुरूपयोगानुसन्धान आयोगेन जलस्रोत सेचन विभागस्य एतदन्तर्गतेषु विभिन्नेषु कार्यालयेषु कार्यरतस्य तात्कालिकस्य स्थपतेः विष्णु कुमार श्रेष्ठस्य विरूद्धे विशेष न्यायालये आरोपपत्रम् पञ्जीकारितम् वर्तते। श्रेष्ठस्य पार्श्वे विद्यमानानाम् चतस्त्रीणाम् कोटीनाम् 83,00,000 30,000 च रूप्यकाणाम् सम्पदः आयस्रोतः प्राप्तम् नास्तीति उल्लिख्य ह्य न्यायालये आरोपपत्रम् पञ्जीकारितमस्तीति आयोगस्य प्रवक्ता नरहरि घिमिरे अज्ञापयत्। स्थपतिना श्रेष्ठेन दीर्घकालम् यावद् सेचनस्य जलोत्पन्न प्रकोप नियन्त्रणस्य च नाम्नि निर्मात्स्यमानाभ्य संरचनाभ्य निर्माण व्यवसायिना सह सम्मिल्य अवैधरूप्यकाणि गृहीत्वा काष्ठमण्डपस्य ललितपुरस्य च बहुषु स्थानेषु गृहाणि भूमिं यानं च कृत्वा विभिन्नासु संस्थासु निवेशं विभिन्नानां जनानां नामनि भूमिं चलाचल सम्पदं च गोपायित्वा स्रोतोरहितायाः अवैधानिक सम्पत्तेः आर्जनं विहितमिति आरोपपत्रे उल्लिखितम् वर्तते। काष्ठमण्डप जनपद न्यायालयेन राष्ट्रिय स्वतन्त्र दलस्य सभापतिम् रवि लामी छानेविधम् न्यायिक नियन्त्रणे स्थापयितुम् आदेशः प्रदत्तोऽस्ति। न्यायाधीशस्य माधव प्रसाद अधिकारिणः न्यायपीठेन अद्य 10 न्यायपीठे उपस्थापनत्वेन आदेशम् प्रदाय नियन्त्रणे स्थापयितुम् आदेशः प्रदत्तोऽस्ति। विपद संकट न्यूनीकरण व्यवस्थापन राष्ट्रिय परिषद षोडशोपवेशेन पश्चिम नेपाल भूकम्पस्य एतद् विक्रम वर्षस्य प्राकृतिक विपदश्च अनन्तरं पुनर्निर्माणाय पुनस्थापनायै च योजना स्वीकृतास्ति। प्रधानमन्त्रिणः परिषद अध्यक्षश्च केपी शर्मा ओलिनः अध्यक्षतायां ह्य सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये उपविष्टेन उपवेशेन क्षतेः विस्तृत यथार्थं मूल्यांकनं विधाय शैव पौषमासस्य 21 दिवसे उपविष्टस्य विपद संकट न्यूनीकरण व्यवस्थापन कार्यकारी समितेः उपवेशस्य निर्णयस्य अनुसारेण योजनेयं स्वीकृतास्ति। योजनायाः स्वीकृत्या सहैव माघमासस्य द्वितीय दिवसात् लाभग्राहिभिः संविधान विधाय पुनर्निर्माणम् प्रारप्स्यते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् महान्यायाधिवक्त्रा रमेश बडालेन गतार्थिक वर्षस्य महान्यायाधिवक्तुः कार्यालयस्य वार्षिकम् प्रतिवेदनम् प्रस्तुतमस्ति। शीतलनिवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे प्रतिवेदनम् गृह्णन् राष्ट्रपतिः पौडेलः सर्वकारीय न्यायिक प्रकरणानाम् अनुसन्धानाभियोजन वाद रक्षा प्रतिरक्षा प्रवृत्तीनि कार्याणि इतोऽपि प्रभावकारिणि तथ्यपरकाणि च भवेयु इति प्रावोचत। महान्यायाधिवक्तुः कार्यालयेन राष्ट्रपतेः पौडेलस्य समक्षम् वार्षिकम् प्रतिवेदनम् प्रतिवेदनस्य प्रस्तुतेः अनन्तरं ह्यः आयोजिते पत्रकार सम्मेलने गतार्थिकवर्षे निर्णीतेषु न्यायिक प्रकरणेषु प्रतिशतं दशमलव द्विशतोत्तराष्टषष्टेः न्यायिक प्रकरणानां निर्णयं प्राप्तुं सफलादिगतेति ज्ञापितं वर्तते। महान्यायाधिवक्ता रमेश बडालः अपराधस्य नवीनतम प्रवृत्त्या प्रवृद्धिना च उपस्थापितस्य अपराधस्य नियन्त्रणाय निवारणाय च अनुसन्धानकर्तुः अभियोजनकर्तुश्च क्षमता विकासस्य आवश्यकता वर्तते इति प्रावोचत। अद्य स्वस्थानी व्रतारम्भ दिवसः। अद्यतः मासं यावत् नेपाली महिलाः स्वस्थानी व्रतम् आचरन्ति। अस्मिन् क्रमे प्रतिदिनं स्नात्वा मध्याह्ने स्वस्थानी देवीं परमेश्वरीं सम्पूज्य हिन्दुधर्मावलम्बिन्यो महिलाः एकभोजिन्यः सत्य सायं भगवत्याः स्वस्थान्याः कथां शृण्वन्ति श्रावयन्ति च। पुरा किल देवादिदेवं महादेवं पतित्वेन वरितु कामया त्यक्ता हारया गिरिजया बालुकायाः शिवलिङ्गं निर्माय शिवपूजनं कृतं तस्य प्रभावेण सा सर्वभूतपतिं पशुपतिं पतिम् अवाप इति वृत्तान्तः स्वस्थानी व्रतस्य महत्वागानावसरे चर्चितोऽस्ति। गौरीशंकरयोः सम्मेलनमनु लोककल्याणार्थं पार्वत्या ऋषिभिश्च इदं व्रतं प्रचारितमिति जनविश्वासोऽस्ति। श्रीस्वस्थानी व्रतस्य कृते काष्ठमण्डपस्य साकुस्थाने शालीनद्यः तटे विशेष समवायः दृश्यते। शालीनद्यां स्नात्वा व्रताचरणेन व्रतं सफलं भविष्यति इति श्रीस्वस्थानी व्रतकथायाम् उल्लिखितं वर्तते इत्यतः नेपालस्य भारतस्य च विभिन्नेभ्यः स्थलेभ्यः व्रतालवः महिलाः शालीनदीं प्राप्य एकमासं यावत् व्रतम् आचरन्ति। अस्मिन्नेव क्रमे शालीनद्यः तटे महत श्री स्वस्थानी व्रत मेलापकञ्च आयोज्यते यत्र व्रतालूनां दर्शनार्थिनां भक्तानां च महान् सम्मर्दः दृश्यते। श्री स्वस्थानी व्रतं माघ शुक्ल पूर्णिमायाम् अर्थात् आगामिनः माघ मासस्य त्रिंशे दिवसे समाप्स्यते। संसदः राज्यव्यवस्था सुशासन समित्या विचाराधीनानां संघीय सर्वकारीय सेवायाः विचाराधीनं संघीय सर्वकारीय सेवाया संगठन संचालन सेवा सौविध्यस्य सम्बन्धे व्यवस्थापयितुं निर्मितं विधेयकम् आधृत्य सांविधानिकायोगानां पदाधिकारिभिः परामृष्टं वर्तते। समिते ह्यस्तनोपवेशे राष्ट्रिय महिलायोगस्य अध्यक्षा कमला पराजुली सांविधानिकायोगानां वैशिष्ट्यस्य कारणेन कर्मचारिणां नियुक्तौ पृथक् सेवायाः आवश्यकतास्थिति अगदत्। उपवेशे दलितायोगस्य अध्यक्ष देवराज विश्वकर्मा अप्राप्तावसराणां जनानां समुदायतः कर्मचारिणां नियुक्तौ योग्यतायाः मापदण्ड न निर्धारणीयः इति अभासत। एवमेव राष्ट्रिय समावेशी आयोगस्य सदस्य हरिदत्त जोशी कर्मचारिणां श्रमिक संघटनस्य अधिकारं विधेयके समावेष्टुं बलं प्रादात्। उपवेशे सांसदाः सर्वकारीय कर्मचारीषु राजनैतिक दलानां भातृ संघटनस्य रूपेण श्रमिक संघटनस्य स्थापना न विधेया इति धारणां व्यक्तवन्तः। सभामुख देवराज घिमिरे सार्वजनिक निकायैः सर्वैः राजनीतिक दलैः सूचनायाः अधिकार सम्बद्धस्य चतुष्षष्ट्यधिक द्विसहस्रतम विक्रम वर्षीयाधिनियमस्य व्यावहारिक रूपेण प्रभावकारिणे क्रियान्वयनाय बलं ददाति। राष्ट्रिय सूचना योगेन ह्य आयोजितायां राजनीतिक दले सूचनायाः अधिकार सम्बद्ध विधेः अभ्यास विषयिण्याम् अन्तरक्रियायां सभामुखा घिमिरे सर्वैः राजनीतिक दलैः लोकतन्त्रं सबलं विधातुं जनतायाः विश्वासं जेतुं च पारदर्शी रूपेण अस्य अधिनियमस्य क्रियान्वयनं विधेयम् इति प्रावोचत। इति समाचाराः।